चित्रं त्रयोविंशतिः ईश्वरस्य पुत्राः इदं चित्रेषु त्वं पश्यन्ति साध्यम् इदं विश्वेषु एकस्य ग्रामं त्वेषु ग्रामं त्वेषु भाषेषु प्रतीजातेषु सुस्वागतं कर्वन्ति तेषु सहस्येषु विश्वासं कुर्वन्ति स्म तेषु सर्वं सर्वान्तनां ईश्वरस्य पुत्राः निर्माणं भवति तेषु इदं कठिनस्य मार्गेषु अस्ति तेषु इदं विधानेषु स्वर्गस्य मार्गम् आगच्छयन्ति स्म ईश्वरस्य पुत्राः एकः बृहत्तर परिवाराणाम् अस्मित् तेषु अल्पानां धनिकाः च दरिद्रनाय स्वल्पजनाङ्गम् कृष्णवर्णं च श्वेतवर्णं स्वल्पानां जनाङ्गं तेषु पुरुषाः च स्त्रीणां च बालकानां सन्ति तेषु सर्वं प्रभु ईशस्य नामेषु सर्वस्य जनाङ्गानां प्रागच्छयन्ति